महाभाष्यव्याख्या पटुशयनमारोपयति वा स्मरव्यापारेष्य पिशुननिटिलं कारयति वा द्विरेपानामत्या सयति सततं वादिवसतिं प्रणम्रान् कामाक्ष्याः पदनलिनमाहात्म्यगरिमां विवेकाम्बश्रोतस्नपनपरिपाटीशिशिरिते समीभूते शास्त्र स्मरणहलसङ्कर्षणवशात् सतां चेतहत्रे वपति तव कामाक्षि चरणो महासंवित्सस्य प्रखरवरबीजं गिरिसुते तदा नो मन्तार स्तपकपरिपाटीं न करु च वहन् दीप्तां शोनां कुलिपटलचाम्बेयकलिकाम् अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो विकासी वासन्तः समय इव ते शर्वदयिते